इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः जतिनशर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नेपालस्य अन्तरिम प्रधानमन्त्रिणा सुशीला कार्की इत्यनया सह संवादं कृतवान्। सहैव शान्ति स्थैर्ययोः पुनः प्रतिष्ठायै भारतस्य दृढ समर्थनमपि प्रतिपादितवान्। केन्द्रीय वित्तमन्त्रिणा निर्मला सीतारमण इत्यनया प्रोक्तं यत् राज्येषु स्थितानां औद्योगिक प्रशिक्षण संस्थानानां एआई संचालित प्रशिक्षण केन्द्रत्वेन उन्नयनार्थं केन्द्रपक्षतः पूर्ण वित्त समर्थनं प्रदास्यते। निर्वाचनायोगेन अद्य प्रोक्तं यत् कांग्रेस नेतुः राहुल गांधिनः मतविलोपन सम्बद्धाः आरोपाः मिथ्या निराधाराश्च सन्ति। अपि च भारतेन पाकिस्तान स्थितानि आतंकवादी संगठनानि विरुध्य वैश्विक कार्याचरणाय संयुक्त राष्ट्रस्य आह्वानं कृतम्। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अद्य नेपालस्य अन्तरिम प्रधानमन्त्रिणा सुशीला कार्की इत्यनया सह संवादं कृतवान्। सोशल मीडिया सन्देशे श्रीमोदिना प्रोक्तं यत् नेपाले जनहानिमालक्ष्य तेन गहन संवेदना प्रकटिता। सहैव शान्ति स्थैर्ययोः पुनः प्रतिष्ठायै भारतस्य दृढ समर्थनमपि प्रतिपादितम्। अस्मिन्नेव प्रसंगे सः नेपालस्य राष्ट्रिय दिवसमालक्ष्य तस्यै नेपालजनेभ्यश्च हृदयपूर्वकं शुभकामनाम् अयच्छत्। केन्द्रीय वित्तमन्त्रिणा निर्मला सीतारमण इत्यनया प्रोक्तं यत् राज्येषु स्थितानाम् औद्योगिक प्रशिक्षण संस्थानानाम् एआई संचालित प्रशिक्षण केन्द्रत्वेन उन्नयनार्थं केन्द्रपक्षतः पूर्ण वित्त समर्थनं प्रदास्यते। नवदिल्ल्यां भारतीय गुणवत्ता प्रबन्धन फाउण्डेशन इत्यस्य वार्षिक संगोष्ठीं सम्बोधयन्ती सा प्रोक्तवती यत् उद्योगस्य परिवर्तमानानाम् आवश्यकतानां पूर्त्यर्थम् आईटीआई संस्थानानाम् उन्नयनं प्रचलति। मन्त्रिणा कथितं यत् विगतेषु द्वित्रिवर्षेषु वार्षिक आयव्ययके सर्वकारेण जनशक्तेः कौशलविकासाय विशेष प्रावधानानि कृतानि। तया प्रोक्तं यत् सर्वकारः एतदपि सुनिश्चिनोति यत् युवानः प्रोत्साहनेन सह प्रशिक्षिताः अपि भवेयुः। मन्त्रिणा उद्योगजगतः देशस्य युवकानां कौशलविकासे सर्वकारेण सह भागग्रहणार्थम् आग्रहः कृतः। निर्वाचनायोगेन अद्य प्रोक्तं यत् कांग्रेस नेतुः राहुल गांधिनः मतविलोपन सम्बद्धाः आरोपाः मिथ्या निराधाराश्च सन्ति। आयोगेन कथितं यत् कस्यापि मतस्य ऑनलाइन माध्यमेन विलोपनं नैव कर्तुं शक्यते। आयोगेन स्मारितं यत् 23-2000 वर्षे कर्णाटकस्य अलन्द विधानसभाक्षेत्रे मतदातृणां नाम विलोपनाय कतिचन निष्फल प्रयासाः अजायन्त। तदा आयोगेन स्वयमेव प्राथमिकी प्रदत्तासीत्। प्रतिवेदनानुसारम् अलन्द विधानसभाक्षेत्रे 28-2000 वर्षे भाजपायाः सुबाध गुट्टेदारः, 23-2000 वर्षे कांग्रेसस्य बीआर पाटिलः इत्येतौ विजितवन्तौ। अतः पूर्वं राहुल गांधिना अभिहितं यत् अलन्द विधानसभाक्षेत्रे न्यूनातिन्यूनं 6,000 मतानि विलोपितानि। नवदिल्लीस्थे दलमुख्यालये एकं संवाददातृसम्मेलनं सम्बोधयन् राहुल गांधी आक्षिप्तवान् यत् सॉफ्टवेयर तन्त्रे हस्तक्षेपेण मतदातृसूचितः नामानि अपसारितानि। अत्रान्तरे भाजपादलेन भूयो भूयशः निर्वाचनाभियोगं विरुध्य मिथ्यारोप प्रक्षेपणाय राहुल गांधी इत्येषः भर्त्सितः। नवदिल्लीस्थे दलमुख्यालये वार्ताहरसम्मेलने वरिष्ठ भाजपा नेत्रा अनुराग ठाकुरेण आरोपितं यत् टूलकिट इत्यस्य साहाय्यमाश्रित्य राहुल गांधी संवैधानिक संस्थानानाम् उपरि प्रश्नान्युत्थाय तान् दुर्बलीकरोति।
गलत निराधार आरोप बार बार इलेक्शन कमीशन ऑफ इंडिया पर लगाना, कभी ईवीएम पर प्रश्न चिन्ह खड़े करने, कभी वीवीपैट पर करना, कभी चुनावों के नतीजों पर करना और कभी टूल किट के सहारे इस संवैधानिक संस्थाओं पर प्रश्न चिन्ह खड़ा करना, क्या ये आदत सी बन गई है? क्या चाहती है कांग्रेस पार्टी?
संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। भाजपेति दलस्य वरिष्ठ नेता केन्द्रीय गृहमन्त्री अमित शाहः प्रत्यपादयत् यत् बिहारस्य एनडीए सर्वकारः केन्द्रप्रशासनस्य पूर्णसमर्थनेन विकसित बिहारस्य निर्माणार्थं कार्यं कुर्वन्नस्ति। रहितास मण्डले शाहाबाद मगध प्रदेशयोः बीजेपी नेतृणां कार्यकर्तृणां च प्रादेशिक सभां सम्बोधयन् श्रीशाहः पक्षकार्यकर्तृभ्यः प्रतिगृहं गत्वा आंगनवाड़ी कार्यकर्तृणां आंगनवाड़ी सहायकानां ममताश्वसानां जीविकाश्वसानां यूनां महिलानां च कल्याणार्थं नीतिश सर्वकारेण कृताः उपायाः जनान् सूचयितुम् आह्वयत्। श्रीशाहः आरोपितवान् यत् कांग्रेस नेतुः राहुल गांधीनः मतदात्री अधिकार यात्रा वस्तुतः भ्रष्टजनानां रक्षणार्थम् अभियानम् अस्ति इति।
यात्रा का विषय बिहार में अच्छी शिक्षा लाना नहीं था, यात्रा का विषय रोजगारी नहीं था, यात्रा का विषय बिहार में 24 घंटा बिजली नहीं था, यात्रा का विषय हर गांव हर टोले में रोड पहुंचाना नहीं था, यात्रा का विषय था जो बांग्लादेश से घुसपैठिए आए हैं उनको बचाने का विषय था।
बिहार सर्वकारेण वृत्तिहीनेभ्यः पुरुषेभ्यः महिलास्नातकेभ्यश्च वर्षद्वयं यावत् सहस्ररूप्यात्मकस्य अनुदानस्य घोषणा कृता। मुख्यमंत्री निश्चय स्वयं सहायता भत्ता योजनया कला विज्ञान वाणिज्य संकायानां वृत्तिहीनाः पुरुषाः स्नातक महिलाश्च लाभान्विताः भविष्यन्ति। राज्ये विधानसभा निर्वाचनात् प्राक् मुख्यमन्त्रिणा कृतासु घोषणासु अयं महत्वपूर्णः निर्णयः वर्तते। अस्यान्तर्गतं 20-तः 25-वर्षदेशीयाः स्नातकयुवानः ये अध्ययनाय नामाङ्किताः न सन्ति किन्तु सक्रियतया कार्यम् अन्विषन्ते ते एतदर्थं योग्याः भविष्यन्ति। सूचना प्रसारण मन्त्रिणा अश्विनी वैष्णवेन प्रोक्तं यत् आयकर अधिनियमेषु वस्तु सेवा करे च प्रमुखाः परिष्काराः कृताः। नवदिल्ल्यां पीएएफआई 25-2000 वार्षिक फोरम इत्यस्मिन् भाषवाणः श्री अश्विनी वैष्णवः उक्तवान् यत् येन प्रकारेण जीएसटी संरचना कृता तेन नित्यजीविपयोगिनि पदार्थाः कृषि उत्पादनञ्च इतोपि मितव्ययी भविष्यति। रेलयात्रिणां सुरक्षा विषये सः अवदत् यत् भारतीय रेलयान परियोजनासु प्रतिवर्षं 300,000-1,00,000 रूप्यकाणि व्ययीक्रियन्ते। तेन प्रोक्तं यत् शासनस्य निरन्तर प्रयत्नैः दुर्घटनानां संख्या 70-1,00,000 इत्यतः अपचीय गतवर्षे 31 अभवत्। भारतेन पाकिस्तान स्थितानि आतंकवादी संगठनानि विरुध्य वैश्विक कार्याचरणाय संयुक्तराष्ट्रस्य आह्वानं कृतम्। भारतेन प्रोक्तं यत् संयुक्तराष्ट्रेण सूचीबद्धाः पाकिस्तान देशे स्थिताः आतंकवादी समूहाः आतंकवाद प्रसारणार्थं अफगान भूमेः उपयोगं न कुर्युः। ह्यः संयुक्तराष्ट्र सुरक्षा परिषदि अफगानिस्तानदेशोपरि आयोजिते संक्षिप्त वक्तव्ये भारतस्य स्थायि राजदूतेन पर्वतनेनी हरीशेन अफगानिस्तानदेशस्य आतंकवाद सम्बद्ध शोषण निवारणाय समन्वित वैश्विक कार्याचरणस्य आह्वानं कृतम्। सः अवदत् यत् भारतं तत्र सुरक्षास्थितिं कठोरदृष्ट्या निरीक्षते। तेन अग्रे प्रोक्तं यत् भारतम् अफगानिस्तानस्य सहायतायै सदैव अन्ताराष्ट्रिय क्षेत्रीय सहकारस्य समर्थनं करोति। बैडमिंटन क्रीडायाम् अद्य भारतस्य प्रमुखा क्रीडिका पीवी सिंधुः चीनदेशस्य शेंझेन नगरस्थे चाइना मास्टर्स सुपर 50-700 इत्याख्यायां प्रतियोगितायां महिला एकलपक्षे स्वस्थानम् अवाप्तवती। सिंधुः थाईलैंड दलस्य पोम्पवावी छोछुवोंग इतीमां 21-15 इत्यंकांतरालेन पराजितवती। इति वार्ताः।